ಏನಾಕ್ಷರ ಸಮಾನಾಯಮಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃತ್ಸಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ಯೇನ ದ್ಯೋತಾಗಿರಃ ಪುಂಸಾಂ ವಿಮಲೈ ಶಬ್ದವಾರಿಭಿಃ ತಮಶ್ಚಾಜ್ಞಾನಜಂ ಭಿನ್ನಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ಶ್ರೂಯತೆ ವಾ? ಶ್ರೂಯತೆ ವಾ? ಅದ್ಯಾರಭ್ಯ ವಿಸರ್ಗಸಂಧಿ ಪ್ರಕರಣ ಪಠಾಮಃ. ಮತ್ವಾ ಸರಸ್ವತೀಂ ದೇವೀಂ ಶುದ್ಧಾಂ ಗುಣ್ಯಾಂ ಕರೋಮ್ಯಹಂ ಪಾಣಿನೀಯ ಪ್ರವೇಶಾಯ ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ. ವಿಸರ್ಗಸಂಧಿ ಪ್ರಕರಣ ಶ್ರೂಯತೆ ವಾ? ಇದಾನೀ ಶ್ರೂಯತೆ ವಾ? ವಿಸರ್ಗಸಂಧಿ ಪ್ರಕರಣ ಪ್ರಥಮ ತತ್ರ ಲಘುಕೌಮುದ್ಯಾಂ ತತ್ರ ವ್ಯಂಜನಸಂಧಿ ಪ್ರಕರಣೆ ಕೇಚನ ವಿಸರ್ಗಸಂಧಿ ಸಂಬದ್ಧ ಸೂತ್ರಾಣಿ ಸಂತಿ ತದಪಿ ಕಿಂಚಿತ್ ಅತ್ರ ಪುನಃ ಆವರ್ತನಾರ್ಥಂ ಸ್ವೀಕೃತಂ. ಖರವಸಾನಯೋರ್ ವಿಸರ್ಜನೀಯಃ ಇತಿ ಪ್ರಥಮಂ ಸೂತ್ರಂ. ಅಷ್ಟಮಾಧ್ಯಾಯಸ್ಯ ತೃತೀಯ ಪಾದಸ್ಯ ಪಂಚದಶತಮಂ ಸೂತ್ರಂ. ಖರವಸಾನಯೋಃ ವಿಸರ್ಜನೀಯಃ ಏತದ್ ಅಸ್ಮಾಭಿಃ ಪಠಿತಂ ಕಿಂಚಿತ್ ಕೇವಲಂ ಪುನರಾವರ್ತನಂ. ಖರಿ ಅವಸಾನೇ ಚ ಪದಾಂತಸ್ಯ ರೇಫಸ್ಯ ವಿಸರ್ಗಃ ಭವತಿ. ಅತ್ರ ಅಸ್ಮಾಭಿಃ ತತ್ರ ಖರಿಪರೆ ಅವಸಾನೇ ಚ ಪದಾಂತಸ್ಯ ರೇಫಸ್ಯ ವಿಸರ್ಗಃ ಸಂಸ್ಕರ್ತ ಇತಿ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಂ. ಉದಾಹರಣಂ ಏವಂ ಅತ್ರ ದ್ವಿತೀಯಂ ಸೂತ್ರಂ ವರ್ತತೆ ವಿಸರ್ಜನೀಯಸ್ಯ ಸಹ. ವಿಸರ್ಜನೀಯಸ್ಯ ಸಹ ಇತ್ಯತ್ರ ಪದದ್ವಯಂ ವಿದ್ಯತೆ. ವಿಸರ್ಜನೀಯಸ್ಯ ಇತ್ಯತ್ರ ಷಷ್ಠಿ ಏಕವಚನಂ, ಸಹ ಇತ್ಯತ್ರ ಪ್ರಥಮೈಕವಚನಂ. ಸೂತ್ರಾರ್ಥ ಏವಮಸ್ತಿ ಖರಿ ವಿಸರ್ಜನೀಯಸ್ಯ ಸಹ ಸ್ಯಾತ್ ವಿಷ್ಣುಸ್ತ್ರಾತ ಇತಿ ಮೂಲೆ ಅಸ್ತಿ. ಕಥಂ ತತ್ ಸೂತ್ರಾರ್ಥ ಸಂಪದ್ಯತೆ ಇತಿ ಅಸ್ಮಾಭಿಃ ಅವಗಂತವ್ಯಂ. ಅತ್ರ ಖರವಸಾನಯೋರ್ ವಿಸರ್ಜನೀಯಃ ಇತಿ ಸೂತ್ರಾತ್ ಖರಿ ಇತಿ ಅನುವರ್ತತೆ. ವಿಸರ್ಜನೀಯಸ್ಯ ನಾಮ ವಿಸರ್ಗಸ್ಯ ಸಹ ಭವತಿ. ಕದಾ ಭವತಿ? ಖರಿಪರೆ ಭವತಿ ಇತಿ ಆಗಚ್ಛತ್. ಖರಿಪರೆ ಭವತಿ. ಖರ್ ವರ್ಣಾಃ ಖೆ ಇತಿ ವಯಂ ಪಶ್ಯಾಮಶ್ಚೇತ್ ಶಶಸ ಇದಾನೀಂ ವಿಷ್ಣುಸ್ತ್ರ ಸಂದೇಹ ಅಸ್ತಿ ವಾ? सो विष्णु स्त्राता इति उदाहरणम् अस्ति. विष्णु स्त्राता इत्यत्र विसर्गः अस्ति. त्राता इत्यत्र कर्वर्णः, तकारः कर्वर्णः, सकारादेशः. विष्णु स्त्राता सुलभमस्ति. इदानीं एतत् सूत्रं लघुकौमुद्यां नास्ति, तथापि अस्माभिः अध्येतव्यम् इति कारणतः अहम् अत्र स्वीकृतवान्. सिद्धान्तकौमुद्याम् अस्ति एतत् सूत्रं. शर्परे विसर्जनीयः इति एकं सूत्रं विद्यते. शर्परे विसर्जनीयः इति सूत्रं कुत्र विद्यते? अष्टमाध्यायस्य तृतीयपादस्य पञ्चत्रिंशत्तमं सूत्रम्. शर्परे इदानीम् अत्र खरवसानयोर्विसर्जनीयः इत्यतः खरि इति अनुवर्तते. विसर्जनीयस्य सः इत्यतः विसर्जनीयस्य इति अनुवर्तते. इदानीं शर्परे खरि, खरि इति स्वीक्रियते. शर्परे खरि सप्तमी. शर्वर्णपरके कर्वर्णे परे इति अस्माभिः अर्थकरणीयः. शर्परे खरि विसर्जनी, शर्परे खरि विसर्जनीयस्य विसर्जनीयः एव, न तु अन्यत् इति सूत्रार्थः सिद्धान्तकौमुद्यां वर्णितः. इदानीं अत्र विसर्जनीयस्य विसर्गः एव भवति. एतद् विशिष्टम् उदाहरणं कः सरुः इति. इदानीं कः त् सरुः इति अस्ति. इदानीं खर्वर्णः अस्ति, तकारः कर्वर्णः, ततः परं शर्वर्णः अस्ति. इदानीं खर्वर्णे परे, खरिपरे शर्वर्णे परे विसर्गस्य विसर्गः एव, न तु अन्यत्. न तु अन्यत् इत्युक्ते सकारः वा रेफः वा किमपि अन्यत् कार्यं न भवति. अतः विसर्गस्य विसर्गः एव भवति. कः सरुः इत्येव अस्माभिः वक्तव्यम्. अत्र जिह्वामूल्यमपि सत्वं, जिह्वामूल्यं यत्किमपि न भवति. इदानीम् उदाहरणार्थं तत्र श्लोकेषु वयं पश्यामः. इदानीं भगवत् घनाघनः क्षोभणः इति अस्ति. घनाघनः क्षोभणः, घनाघनक्षोभणक्षर्षणीनाम् इति वेदे अस्ति. घनाघनः इति अस्माभिः तत्र पूर्णविसर्गस्य उच्चारणं कर्तव्यम्. घनाघनः क्षोभणः इति एव कर्तव्यम्. इदानीं भगवद्गीतायाम् उदाहरणमस्ति. स्मृतिर्मेधा धृतिः क्षमा इति अस्ति. दशमाध्याये भगवद्गीतायां प्रायः चतुर्विंशति वा न चतुस्त्रिंशत्तमं श्लोकं प्रायः भगवद्गीतायामस्ति. एवं विष्णुसहस्राणि अपि अस्ति, विष्णुसहस्रनामे अपि अस्ति. तत्र स्मृतिर्मेधा धृतिः क्षमा, धृतिः क्षमा इति अस्ति. धृतिः क्षमा इदानीं विसर्गः कर्वर्णः, ककारः क्षमा इत्यत्र ककारः खर्वर्णः, ततः परं षकारः मूर्धन्यषकारः शर्वर्णः. शर्परे विसर्जनीयः इति सूत्रं विद्यते. शर्परे विसर्जनीयस्य विसर्जनीयः, विसर्गस्य विसर्गः एव स्यात्. एतादृश उदाहरणानि बहूनि श्लोकपठनसमये आगच्छन्ति. रामायणे, भागवते, विष्णुसहस्रनामनि, तत्र ललितासहस्रनामनि अपि आगच्छति. तदा अस्माभिः विसर्गस्य पूर्ण उच्चारणं कर्तव्यं. सौन्दर्लहरी मध्ये अपि आगच्छति. विसर्गस्य पूर्ण उच्चारणं कर्तव्यं, न तु अर्ध उच्चारणम्. इदानीं विष्णुसहस्रनामनि किम् अस्ति उदाहरणम्? क्षमः क्षामसमीहनः इति अस्ति. अस्ति वा विष्णुसहस्रनामनि क्षमः क्षामः समीहनः इति अस्ति. इदानीम् अस्माभिः एवं क्षमक्षामः समीहनः इति न वक्तव्यम्. क्षमः क्षामः समीहनः, क्षामसमीहनः इति वक्तुं शक्यते, परन्तु क्षमः क्षामः इत्येव वक्तव्यम्. यतोहि शर्परे विसर्जनीयस्य विसर्जनीयः एव स्यात् इति सूत्रं विद्यते. एवम् अग्रिमं सूत्रं किम् इति पश्य वाशरि. वाशरि इति अग्रिमं सूत्रं, तत् लघुकौमुद्यामस्ति. वाशरि इत्यत्र शरीविसर्गस्य विसर्गो वा स्यात् इति वा स्यात् इति अस्ति. इदानीम् एतदपि विधिसूत्रं वर्तते, तत्र पदद्वयं वर्तते. विसर्जनीयस्य सह इति सूत्रात् विसर्जनीयस्य इति अनुवृत्तिः अस्ति. शरीपरे विसर्गस्य विसर्गः वा विकल्पेन भवति इति सूत्रार्थः सम्भवति. अत्र विसर्गात् परं यदि शर्वर्णः भवति, शर्वर्णो नाम शीर्षस, विकल्पेन विसर्गस्य विसर्गः एव भवति. यदि विसर्गः न भवति, विसर्गाभावपक्षे विसर्जनीयस्य सह इति सकारादेशः भवति. सकारादेशः यदा भवति, सकारात् परं यदि शकारः अस्ति श्चुत्वं वा, यदि मूर्धन्यशकारः अस्ति श्चुत्वं वा सम्भवति. अत्र हरिश्येते इति प्रसिद्धमुदाहरणम्. हरिः श्वेते, तत्र विसर्जनी वाशरि इत्यनेन किं भवति? हरिः श्वेते इत्येव भवति. यदि विसर्जनीयस्य सह वाशरि इति विसर्गाभावे विसर्जनीयस्य सह इत्यनेन सकारः आगच्छति. सकारे स्थिते अनन्तरं स्तोश्चुनाश्चुः, भवन्तः जानन्त्येव, हरिश्येते इति भवति. एवं रूपद्वयं, हरिः श्येते हरिश्येते इति. विसर्गसर्गिप्रकरणं सुलभमस्ति, अतः अहं किञ्चित् वेगेन गच्छामि. यदि संशयाः सन्ति कृपया स्थगित्वा पृच्छन्तु. रेस् हेण्ड् इति अस्ति, तत् कुर्वन्तु, नो चेत् वार्तालापं कर्तुं शक्यते. विद्याभगिनी किमपि प्रश्नं प्रष्टुमिच्छति वा? विद्यारमेश रामन्, किमपि नास्ति, अस्तु अग्रे गच्छामः. इदानीं कुप्पो कप्पो च इत्यपि अस्ति, एतदपि अस्माभिः ज्ञातव्यम्. खर्वर्णे परे इदानीं विसर्गस्य सकारः विसर्जनीयस्य सः इति उक्तम्. कुप्पो कप्पो च इति सूत्रमपि अस्ति, तत् पुनः मया तत्र व्यञ्जनसन्धिप्रकरणात् स्वीकृतं, परन्तु विसर्गसन्धिप्रकरणे आगन्तव्यम् एतत्. अत्र कुप्पो कप्पो च इति सूत्रं किं वदति? कवर्गे पवर्गे च परे विसर्जनीयस्य जुह्वामूलीयौ पद्मानियौ स्तः. अत्र विशेषविहितत्वात् यदा कवर्गः भवति पवर्गः भवति, तत्र क ख प फ इति प्रथमद्वितीयवर्णः भवति, वर्णौ भवतः, तदा अस्माभिः अर्धविसर्गसदृशजिह्वामौलीय उपद्मानीयौ एव अस्माभिः उच्चारणं कर्तव्यम्. इदानीं सूत्रस्य उदाहरणं पश्यामः. तत् तस्मिन् दिने किमपि अन्यत् उदाहरणम् उक्तम्. इदानीं विसर्गसन्धिप्रकरणे अन्यत् उदाहरणं मया उच्यते, कः करोति. अत्र कः करोति, कः करोति इति अर्धविसर्गसदृशं सन्धिः भवति. नो चेत् कुप्पो कप्पो च इत्यत्र च इति स्वीकारेण विसर्गस्य विसर्गः एव भवति, कः करोति इति. कः खनति, कः खनति, कः खनति. कः पचति, कः पचति, कः पचति. कः फलति, कः फलति, कः फलति इति रूपद्वयम् आगच्छति. एतद् अस्माभिः दृष्टं, पुनः अहं विसर्गसन्धिप्रकरणे स्वीकृतं मया, यतोहि विसर्गसन्धि सम्बद्धमेव अस्ति सूत्रम्. अग्रिमसूत्रं विद्यते ससजुषोरुः इति. ससजुषोरुः इत्यत्र पदान्तस्य, अत्र ससजुषः इत्यत्र ससजुषो ससजुषौ इति आगच्छति तयोः ससजुषोः. अत्र पदस्य इति विशेषणं पदस्य इति विशेषं स्वीकर्तव्यम् सकारान्त सजुशब्दान्त पदस्य पदान्तस्य सस्य सजुशब्दस्य च रुहु स्यात् इति सूत्रार्थः. अत्र पदस्य इति अधिकारः अस्माभिः स्वीकर्तव्यम् पदस्य इति अधिकारः अष्टमाध्यायस्य प्रथमपादे षोडशतमं सूत्रम् अस्ति वा कृपया पश्यन्तु. पदस्य इति अधिकारः पदस्य पदात् इति प्रायः अस्ति पदस्य पदात् पदस्य इति अस्ति षोडशतमं सूत्रम्. इदानीं पदस्य इति अस्माभिः विशेष्यरूपेण स्वीकृत्य तदन्तविधिना विशेषणत्वेन स्वीक्रियते सकारान्तपदस्य पदान्तसकारस्य सजुषित्यस्य पदान्तसकारस्य सजुषित्यस्य षकारस्य मूर्धन्यषकारस्य रुः स्यात्. रुः इत्युक्ते रु इत्यत्र उकारः इत्संज्ञकः भवति रेफः भवति. इदानीम् अत्र अस्माभिः उदाहरणं शिवस् अर्च्यः इति स्वीकर्तव्यम्. शिवस् अर्च्यः इत्यत्र शिव ऋ अर्च्यः इति आगच्छति. तद् अग्रिमसूत्रे अस्ति उदाहरणम् अग्रिमसूत्रे अस्ति अग्रिमसूत्रे पश्यामः. अग्रिमसूत्रं किम् इति पश्यामः इदानीम्. तत्र एवं तत्र एवमस्ति शिवस् अर्च्यः तद् अत्र स्क्रीन् मध्ये नास्ति कृपया शृण्वन्तु सम्यक्. शिवस् अर्च्यः इति कृपया लिखन्तु सर्वे. शिवस् अर्च्यः इति लिखन्तु. इदानीं शिवस् अर्च्यः इत्यत्र सकार शिवस् अर्च्यः इत्यत्र सकारः अस्ति सकारस्य ऋत्वं भवति ससजुषो रुः इत्यनेन. एवं एवं तत्र शिव सकारस्य रु इत्यस्य रेफः भवति शिव ऋ अर्च्यः इति भवति. तदा अग्रिमसूत्रम् आगच्छति अतो रोः अतोरोरप्लुतादप्लुते इति सूत्रमागच्छति. अत्र अतः रोः अप्लुतात् अप्लुते इति पदचतुष्टयं विद्यते. अत्र अतः इत्यत्र पञ्चमी एकवचनं रोः इत्यत्र षष्टि एकवचनम् अप्लुतादित्यत्र पञ्चमी एकवचनम् अप्लुते इत्यत्र सप्तमी एकवचनम्. एवम् अप्लुतात् अतः परस्य रोः रुः स्यात् अप्लुते अतिपरे अप्लुताद् अतः अप्लुताद् अतः परस्य रोः रुः स्यात् अप्लुते अतिपरे इति अस्ति. अत्र ऋत उत् इति एकं सूत्रं विद्यते. इदानीम् अतो रोरप्लुताद् अप्लुते इति षष्ठाध्यायस्य सूत्रमेतत् न तु अष्टमाध्यायस्य सूत्रम्. षष्ठाध्याये प्रथमपादे अस्ति एतत् सूत्रम्. अत्र किं भवति अप्लुत् ऋतवुत् इति एकं सूत्रं विद्यते. ऋतवुत् पश्यन्तु, ऋतवुत् एङपदान्तादति, तत्र अति इति ऋतवुत् इत्यस्मात् उत् इति एङपदान्तादति इत्यस्मात् अति इति स्वीक्रियते. एवम् अति ऋतवुत् इत्यत्र उत् इत्यत्र तपरकरणमस्ति. एवं तपरकरणात् अत्र ह्रस्व उकारस्यैव ग्रहणम्, तपरकरणात् ह्रस्व अकारस्य इति. अति इत्यत्रापि अति इत्यत्रापि ह्रस्व अकारस्य ग्रहणम्, अति इत्यत्रापि अति अति इत्यत्रापि ह्र अस्ति. इदानीं सूत्रार्थं पश्यामः. अप्लुतात् अतः परस्य, अप्लुतात् अतः परस्य रोः उहु स्यात्. रुः अप्लुते अप्लुते अतिपरे. इदानीं सूत्र एकनिमिषम् इदानीं शिव ऋ अर्च्यः इति आगतम्. इदानीं शिव ऋ अर्च्यः इत्यत्र अप्लुत अत्र अत्र रेफः अप्लुत अकारस्य परे अस्ति. अप्लुताकारः वकारोत्तर अकारः, वकारोत्तर अकारः अप्लुत अकारः. अप्लुताकारात् परं रेफः अस्ति, ततः परम् अर्च्यः इति अस्ति. एवं रेफस्य स्थाने उकारः भवति, उत् इति भवति. शिव उ अर्च्यः इति तदनन्तरम् आद्गुणः इति भूत्वा शिवो अर्च्यः इति भूत्वा एङपदान्तादति इत्यनेन शिवोर्च्यः इति भवति. अहं पुनः तत् एकं कृपया निमेषद्वयं ददातु, अहं टैप् कृत्वा तत् कथं भवति इति दर्शयामि. अत्र स्क्रीन दृश्यते वा इदानीम् अत्र ससजुषो रुः सस ससजु कंट्रोल में इदानीं पश्यन्तु तत्र स्क्रीन् मध्ये अस्ति शिवसर्च्यः शिव ससजुषोरुः इत्यनेन शिव ऋ अर्च्यः ससजुषोरुः इत्यत्र सकारस्य रेफः तत्र इदानीं वकारोत्तर अकारः अप्लुत अकारः ह्रस्व अकारः अप्लुत ह्रस्व अकारः तस्मात् परं रेफः अस्ति रु अस्ति ततः परम् अर्च्यः इति अप्लुत अकारः अस्ति अप्लुते अतिपरे एवम् अस्य सूत्रस्य विषयः अभूत् अप्लुते अति अस्माभिः आवश्यकः एतद् अकारः तत्र रक्तवर्णे यदस्ति एकनिमिषं तस्य फाण्ट् किञ्चित् रक्तवर्णे यदस्ति तद् अप्लुत अकारः अप्लुते अतिपरे इत्यस्य अप्लुत अकारः अत्र वकारोत्तर अकारः अप्लुतात् इति पञ्चमीविभक्तिः यदस्ति तस्य अकारः अतः इदानीं उः स्यात् इति उकारः आगतः तदनन्तरम् अत्र शिव अकार उकारयोः आद्गुणः इत्यनेन शिवोर्च्यः तदनन्तरम् एङपदान्तागति इत्यनेन शिवोर्च्यः इति भवति एवम् उदाहरणम् अस्माभिः दृष्टम् अग्रिमसूत्रं प्रति गच्छामः हसिच इति सूत्रं विद्यते अत्रापि हसिच इति षष्ठाध्यायस्यैव सूत्रम् उत्त्वप्रकरणम् अप्लुतादतः परस्य रोः उः स्यात् हसिपरे इति इदानीं पूर्वतनसूत्रं पूर्वतन अतोरोरु अप्लुताद् अप्लुते इत्यस्य अप्लुतादतः परस्य रोः उः स्यात् अप्लुते अतिपरे अत्र कण्डीशन् किम् अस्ति नियमः किम् अस्ति अप्लुते अतिपरे अप्लुतादतः परस्य रोः उः स्यात् इति अतोरोरु अप्लुताद् अप्लुते इति सूत्रस्य अर्थः इदानीं हसिच इति सूत्रस्य अर्थः तत्र मूले किं दत्तं तथा इति दत्तं शिवो वन्द्यः इति दत्तम् अत्र अप्लुते अतोरो एवमेव तत्र हसिच इत्यस्य सूत्रस्य तथा इत्यस्य कथं वाक्यम् इति अस्माभिः कथं सूत्रार्थं स्वीकर्तव्यम् इत्युक्ते अप्लुतादतः परस्य रोः उः स्यात् हसिपरे हसिपरे हश्वर्णः हश्वर्णाः के हश्वर्णाः के हयवरट् 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 इत्यत्र हयवर लन्य एतद् दकारपर्यन्तं जबगडदश् पर्यन्तं हश्वर्णाः हसिपरे अप्लुतारतःपरस्य रोः उः स्यात् उत्तादेशः भवति एवं शिवः वन्द्यः इत्यत्र शिव विसर्गस्य किं भवति पूर्वं तत् शिवः वन्द्यः इति शिवस्वन्द्यः शिवरुवन्द्यः तदनन्तरं शिव उ वन्द्यः इति भूत्वा शिवो वन्द्यः इति भवति एवम् अत्र शिवस्वन्द्यः इत्यत्र शिवस्वन्द्यः शिवरुवन्द्यः रेफस्य उत्वम् शिव उवन्द्यः शिवोवन्द्यः येनः पदान्तादति इति सूत्रस्य प्रवृत्तिः कुतः नास्ति यतोहि अकारः वामभागे अकारः नास्ति अति नास्ति अतः येनः पदान्तादति इति सूत्रस्य प्रवृत्तिः नास्ति इदानीन्तनपर्यन्तं कोऽपि सन्देहाः सन्ति वा सुलभमस्ति विसर्गसन्धिप्रकरणं सुलभम् अस्ति अग्रिमसूत्रं प्रति गच्छामः भो भगो अघो अपूर्वस्य योषि इति सूत्रमस्ति तत्र भो भगो अघो अपूर्वस्य इति एकं पदम् अशि इति द्वितीयं पदम् एवं यः अशि पदत्रयं विद्यते यः इत्यस्य तत् पश्यामः किम् अस्ति इति भो भगो अघो अपूर्वस्य इत्यस्य षष्टीभक्ति एकवचनमस्ति रोः इत्यस्य षष्टी एकवचनम् अस्ति यः इत्यस्य प्रथमैकवचनमस्ति अशि इत्यस्य सप्तमी एकवचनमस्ति इदानीम् एतत् पूर्वस्य रोः यादेशः यकारादेशः अत्र यकारादेशः भवति अशिपरे भवति कदा भवति अशिपरे भवति केषाम् इदानीं पुनः अत्र भो अघो अपूर्वस्य इत्यत्र कुतः सन्धि भो भगो भगो अघो इत्यस्य भगो अघो इत्यस्य अस्माभिः मया तत्र सन्धिं कृत्वा लिखितं परन्तु वस्तुतः सूत्रे सन्धिः नास्ति मूले प्रायः सन्धिः नास्ति सन्धिः अस्ति वा तत्र मूले सन्धिः अस्ति वा अघो इत्येव अस्ति अघो अपूर्वस्य योषि मूले प्रायः सन्धिः नास्ति मूले किम् अस्ति भगिनि लघुकौमुद्यां मूले किम् अस्ति तद् ज्ञातम् अत्र अकारः अस्ति वा पूर्वरूपसन्धिः कृतः वा न कृतः वा तदेव पृष्टम् एवमस्ति वा एवमस्ति किमर्थं ये तत्र अस्माभिः ये प्रश्नं कर्तुं शक्यते तत्र भो भगो अपूर्वस्य योषि इत्यत्र तत्र अत्र अस्माभिः किं प्रष्टुं शक्यते डैश किमर्थम यद्यपि वो भगो अत्र संधि न कृतः इदानीं तद्विषये किञ्चित् वक्तुम् इच्छामि. अत्र संधि न कृतः मया तत्र कृतम् अत्र कदाचित् सौत्रत्वात् साधुः इति उच्यते. सौत्रत्वात् साधुः नाम यत्र यत्र संहिता नित्या भवति अस्माभिः सन्धि करणीयः एव. संहितैकपदे नित्या, संहितैकपदे नित्या भो भगो अपूर्व भो भगो घो अपूर्वस्य इति एकमेव पदम्. अतः तत्र तत्र सन्धि अवश्यम् अस्माभिः करणीयम्. परन्तु अत्र न कृतः, पाणिनिना एव न कृतः. अतः किमर्थं पाणिनिः एव दोषं करोति इत्येव इति प्रश्नः उदेति. तदा उच्यते सौत्रत्वात् साधुः किमर्थं तत्र स्पष्टप्रतिपत्तये पाणिनिः एवं कृतवान् इति व्याख्यानम् अस्ति. सौत्रत्वात् साधुः नाम सूत्रं तु छन्दोवत्सूत्राणि भवन्ति. छन्दोवत्सूत्राणि भवन्ति इत्युक्ते वेदतुल्यत्वम् अङ्गीकृतम् अस्माभिः. वेदतुल्यत्वं शिष्टप्रयोगत्वम् अस्ति चेत् तस्य साधुत्वम् अङ्गीक्रियते अस्माभिः. इदानीं तत्र उदाहरणार्थम् इदानीं वाल्मीकिरामायणे अपि अञ्जलिं कुर्मि कैकेयी इति दशरथः कैकेयीं दृष्ट्वा यदा सा वरद्वयं पृच्छति तदा दशरथः वदति अञ्जलिं कुर्मि कैकेयी इति वदति. करोमि इति भवितव्यं, कुर्मि इति सः वदति. तत्र किम् अस्माभिः वक्तव्यम् इत्युक्ते आशत्वात् साधुः, ऋषिवाक्यमेतत्, अतः तत्र साधुत्वम् अङ्गीक्रियते. ऋषिवाक्यम् इतिहासम् अस्ति, ऋषिवाक्यमस्ति वाल्मीकिः, ऋषिः अस्ति. अतः आर्षत्वात् साधुः इति तत्र उच्यते. इदानीम् अत्र किम् उच्यते इत्युक्ते भो भगो अघो अपूर्वस्य योषि इत्यत्र सन्धिः पाणिनिना एव न कृतः सौत्रत्वात् साधुः. कदाचित् सूत्रे पाणिनिः सन्धिं न करोति यतोहि सः स्पष्टप्रतिपत्तये प्रायः न करोति इति व्याख्यानकर्तारः वदन्ति. तदा अस्माभिः प्रश्नं पृच्छ्यते तर्हि सूत्रस्य धर्मोत्पत्तिः अस्ति वा, सूत्रस्य पठनेन धर्मोत्पत्तिः अस्ति वा. अस्ति इति वयं वदामः. अत्र सूत्र छन्दोवत्सूत्राणि भवन्ति अतः अस्य साधुत्वम् अङ्गीक्रियते इति प्रथमः अंशः. भो भगो अघो अपूर्वस्य योषि इत्यत्र अत्र भो भगो अघो अपूर्वस्य योषि इत्यत्र समासः एवमस्ति भोश्च भगोश्च अघोश्च अश्च. भो भगो अघो आह तत्र इदानीं रामः कृष्णः मुकुन्दः गोविन्दः, रामकृष्णमुकुन्दगोविन्दाः इति यथा वयं वदामः एवं भो भगो अघो आह इति अस्ति. भो भगो अघो आह पूर्वे यस्मात्, भो भगो आह पूर्वे यस्मात् सः भो भगो अघो अपूर्व अपूर्वः इति भवति. तस्य अपूर्वः तस्य, भो भगो अघो अपूर्वस्य इति समासः. इदानीम् अस्य अर्थः कः? भो पूर्वक, भगो पूर्वक, अघो पूर्वक, अवर्णपूर्वक. पूर्वक रेफस्य रुस्थाने किं भवति? रुस्थाने य आदेशः भवति अशिपरे. पुनः वदामि, अत्र
लघु कौमुद्याम सूत्रार्थः कथमस्ति? हाँ, एतत्पूर्वस्य रोहो यादेशः अशिपरे इति अस्ति। तद् किञ्चित् एतत्पूर्वस्य इति एतत्पूर्वस्य इत्यस्य कः अर्थः इत्येव अस्माभिः ज्ञातव्यम्। भोपूर्वकस्य भगोपूर्वकस्य अघोपूर्वकस्य अवर्णपूर्वकस्य रोहो य आदेशः स्यात्। तत्र ये सिद्धान्तकौमुदीम् अधीत्य अस्यां कक्षायाम् आगच्छन्ति उत जानन्ति ते किञ्चित् मौनं स्वीकर्तव्यम्, यतोहि अत्र बहवः जनाः इदानीं पाणिनिप्रवेशं कुर्वन्तः स्मः। अतः लघुकौमुदी ग्रन्थानुसारं यथामति अहं किञ्चित् निधानतया वक्तुम् इच्छामि। यदि भवत्यः तत्र सिद्धान्ते कौमुदी ग्रन्थानुसारं किञ्चित् वदन्ति चेत् अन्ये तत्र अवगन्तुं न इच्छन्ति। कदाचित् मम मनः अपि कथं भवति, अन्यैः उक्तं चेत् अहम् अग्रे गच्छामि, केषाञ्चन जनानां कृते तद् अवगमनं न भवति। अतः ये जानन्ति यदि मया सम्यक् न उच्यते तदा कृपया मध्ये किञ्चित् वाल्युडिशन् कुर्वन्तु। परन्तु तत्र बहवः जनाः प्रप्रथमतया पाणिनिसूत्रं लघुसिद्धान्तकौमुदीं पठन्ति, अतः तेषां कृते तेषाम् अवगमनस्य सौलभ्यार्थं कृपया अस्माभिः ये सिद्धान्त अधीतकौमुदीकाः ये सन्ति कृपया किञ्चित् मौनं धर्तव्यम् इति प्रार्थये, न तु आदेशं ददामि, किञ्चित् प्रार्थये। एवम् अत्र भोस् भगोस् अघोस् इति सकारान्त निपाताः एते शब्दाः। भोस् भगोस् अघोस् इति सकारान्त निपाताः एते शब्दाः। एवं चादिगणे पठिताः एते शब्दाः कुत्र पठिताः? चादिगणे पठिताः। चादयः इति अस्माभिः एकं सूत्रम् अधीतम्। चादिगणे पठिताः चादयो असत्त्वे इति सूत्रेण येषां निपातसंज्ञा विद्यते, केषां? भोस् भगोस् अघोस् इति एतेषां निपातसंज्ञा विद्यते। एतेषां स्वरादिनिपातम् अव्ययम् इत्यनेन अव्ययसंज्ञापि विद्यते। इदानीं एते शब्दाः कुत्र उपयुज्यन्ते इति अस्माभिः प्रष्टव्यम्। इदानीं साधारणसम्बोधनसमये भोस् भो भोः इति उच्यते, तत् भोः साधारणसम्बोधनसमये। तत्र भगोः भगोः इति सम्बोधनं कदा उपयुज्यते? भगोः इत्यपि सम्बोधनात्मकं, भगोस् एतत् शब्दः अपि सम्बोधनात्मकम् अव्ययमस्ति। भगोस् इत्यत्र भगवतः सम्बन्धि सम्बोधनं यदा क्रियते तदा भगोस् इति उपयुज्यते। एवम् अघोस् इति अस्ति, अघोस् इति कदा उपयुज्यते? तत्र पापी यः पापं करोति सः पापी भवति, पापिनां सम्बोधनं यदा क्रियते तदा प्रायः అఘోస్ ఇది ఉపయుజ్యతే. ఇదాని ఇదానీ అవగతం వా భో భగో అఘో ఇత్యస్య. ఇదానీం అత్ర అస్తి ఏతత్ పూర్వస్య రోహో యాదేశః అశిపరే ఇతి అస్తి. ఇదానీం పశ్యామః ఉదాహరణం. ఉదాహరణం కిం అస్తి? రోర్ యత్వే కృతే భో దేవాః హలి సర్వేషామితి అగ్రిమసూత్రం. ఇదానీ ప్రథమ ఉదాహరణమస్తి భోస్ దేవాః. భోస్ దేవాః ఇతి కర్తవ్యం అస్మాభిః. భోస్ దేవాః ఇత్యత్ర కిం భవతి? అగ్రిమ సోపానం కిం అస్తి? భోస్ దేవాః ఇతి అస్తి. ఇదానీం అగ్రిమ భోస్ దేవాః ఇదానీం ప్రశ్నం పృచ్ఛామి, కృపయా వదంతు. భోస్ దేవాః ఇతి అస్తి. అగ్రిమ స్టెప్ కిం అస్తి? భోస్ కోపి తత్ర నాస్తి వా? భోస్ భోర్ ససజుషోర్ భోరు దేవా. అగ్రిమ స్టెప్ భోరు దేవా. తదనంతరం భోదు భోరు దేవా. భోరు దేవాః భోయు దేవాః ఏతత్సు భోయు దేవాః. భో భో భగో అగో అపూర్వస్య యోషి ఇత్యస్మాత్ సూత్రాత్ కిం భవతి తత్ర ఇదానీం భోస్ దేవాః ఇతి అస్తి. భోర్ దేవాః ఇతి ఆగచ్చతి. తదనంతరం భో యు సమీచీనం. భో యు దేవాః ఇతి ఆగతం. ఏతదనంతరం అగ్రిమసూత్రం ఆగచ్చతి. హలి సర్వేషాం ఇతి అగ్రిమసూత్రస్య ప్రవృత్తి. హలి సర్వేషాం ఇతి అగ్రిమసూత్రస్య ప్రవృత్తి. హలి సర్వేషాం ఇత్యత్ర కిమర్తి? భో భగో అఘో అపూర్వస్య యస్య లోప స్యాత్ హలి నతు అషి. హలి భో భగో అఘో అపూర్వస్య యకారస్య లోపః స్యాత్ హలి పరే. ఇదానీం భోయు దేవాః ఇతి ఆగతం కిల. భోస్ దేవాః ఇత్యత్ర భోయు దేవాః. ఇదానీం హలిపరే యకారస్య లోపః. భో భగో అగో అపూర్వస్య ఏవం యకార లోపే కృతే భో దేవాః ఇతి అభవత్. ఏవమేవ భగో నమస్తే ఇత్యత్ర భగోస్ నమస్తే, భగోర్ నమస్తే, భగోయు నమస్తే, భగో నమస్తే ఇతి అభవత్. ఏవం అఘోస్ యాహి, అఘోర్ యాహి, అఘో తదనంతరం అఘోర్ యాహి, అఘోయు యాహి, అఘో యాహి ఇతి అభవత్ ఇతి భవతి. అవగతం వా సర్వైః? సులభమస్తి ఏతత్, సులభమస్తి హలి సర్వేషాం. ఇదానీం అగ్రిమసూత్రం విద్యతే. సమయ అభవత్ వా? రోస్తుతి ఇది అగ్రిమ సూత్రం. రోస్తుతి రో అసుపీతి ఏతత్ విశేషతః అష్టమాధ్యాయస్య ద్వితీయ పాదస్య సూత్రం. అన్నః రేఫాదేశః నతు సుపి. అహం శబ్దస్య విషయే ప్రవర్తతే ఏతత్ సూత్రం. అహం శబ్దస్య విషయే కిం ఉచ్యతే, అత్ర అహం ఇతి అనువర్తతే. అష్టమాధ్యాయస్య ద్వితీయ అధ్యాయస్య సూత్రం. అత్ర అహం శబ్దస్య అహం పరే సుప్రత్యయం అతిరిచ్య అన్యస్య సర్వస్య స్థానే, అన్యస్య స్థానే ను ఇత్యస్య రేఫాదేశః భవతి. అహం ఇత్యస్య ను ఇత్యస్య రేఫాదేశః భవతి. అన్నః రేఫాదేశః నతు సుపి. అహం ఇత్యత్ర నకారః నాంతః శబ్దః, నకారాంతః శబ్దః, నకారస్య రేఫాదేశః భవతి. కదా భవతి? సుప్రత్యయం అతిరిచ్య, సుప్రత్యయే పరే నభవత్, రేఫాదేశః నభవతి. యది సుప్రత్యయః ఆగచ్చతి తర్హి కిం భవతి? ఇదానీం అహన్ అహన్ ఇతి వయం పశ్యామః. తత్ర అహరహః ఇతి అస్తి కిల, తస్య అహన్ అహన్ ఇతి పశ్యామః. ఏకనిమిషం. అహరహః ఇత్యస్య అహన్ 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 సారీ ఇదానీం అహన్ అహన్ ఇతి అస్తి. కిం కర్తవ్యం అస్మాభిః? నకారస్య అహన్ అహన్ ఇతి అస్తి, సుప్ ప్రత్యయే పరే రేఫః న భవతి. ఇదానీం అకారః అహన్ ఇత్యస్మాత్ పరః అహన్ శబ్దః ఏవ అస్తి, అతః న సుప్రత్యయః ఏషః. అతః అస్మాభిః కిం క్రియతే? కిం క్రియతే? రేఫాదేశః క్రియతే. ఏవం అహర్ అహర్, సమీచీన, అహర్ అహర్ ఇతి భవతి. ఇదానీం కరవసానయోర్ విసర్జనీయః ఇతి అస్తి. అవాంతర ప్రక్రియా సంతి. ఇదానీం అహర్ అహర్ అహరహ అహరహ ఇతి భవతి. అహరహ ఇతి భవతి. ఏం స్వీ అద్యతన కక్షా కృతే ఏం స్వీకుర్మః. కించిత్ విస్తారః విస్తరేణ కించిత్ వక్తవ్యమస్తి, తద్ అగ్రిమ కక్షాయాం అవశ్యం వదామి. ఇదానీం అహన్ గణః ఇతి అస్తి ద్వితీయం ఉదాహరణం. అహన్ గణః తదా కిం భవతి? నకారస్య రేఫాదేశః అహర్ గణః ఇతి భవతి. తదేవ అస్తి తత్ర అహరహః అహరహః అహర్గణః. అహర్గణః ఇతి భవతి. ఏతత్ అహరహ ఇత్యస్య కించిత్ ఇతోపి వక్తవ్యం భవతి తదా అగ్రిమ కక్షాయాం వదామి. ఇదానీం విసర్గసంధిః ప్రాయః బహు సులభః అస్తి, సులభేన అవగంతుం శక్యతే. పరంతు కస్య సూత్రస్య కదా ప్రవృత్తిః ఇతి కదాచిత్ భ్రమః భవతి. ఉకారాదేశః వా రేఫాదేశః వా సకారాదేశః వా ఇతి అంతే అస్మాభిః విషయ విభాగః కరణీయః. ఖర్పరే కిం భవతి, హష్పరే కిం భవతి, తత్ర ఉత్సర్గః కిం అస్తి, అపవాదః కిం అస్తి, ఏతాదృశ విషయ విభాగం కృత్వా అస్మాభిః అధ్యేతవ్యం. తత్ర సంస్కృత భారతి ద్వారా సంధి పుస్తకం యద్యపి ప్రకాశితం, తత్ర విసర్గ సంధి ప్రకరణే సూత్రక్రమః న ఆదృతః తత్ర, యతో హి సూత్రక్రమేణ కదాచిత్ భ్రమః భవితుమర్హతి ఇతి సూత్రక్రమః న ఆదృతః. తస్మిన్ పుస్తకే సూత్రక్రమః న ఆదృతః, తస్మిన్ పుస్తకే ఏవం ఉకారాదేశః, సకారాదేశః, రేఫః, ఉత్వసంధిః, ఏవం లోపః ఇతి పంచదా వా చతుర్ధా వా విభాగకృతః. తదనంతరం అస్మాభిః తస్యాపి విశ్లేషణం కర్తుం శక్యతే. ఏతత్ సూత్రం జ్ఞాయతే చేత్ తదపి కర్తుం శక్యతే. ఏవం ఏకవారం అగ్రిమ కక్షా ప్రతి యదా భవంతః భవత్యః ఆగమిష్యంతి తతః పూర్వం కించిత్ విసర్గసంధి ప్రకరణం సంస్కృత భారతి పుస్తకాత్ పఠిత్వా ఆగచ్చంతు ఇతి ప్రార్థయే. ప్రాయః 5 pages 6 pages వా అస్తి, తత్ ఝటితి పఠితుం శక్యతే. కించిత్ తత్ర టేబుల్ రూపేణ అస్తి, తత్ర బాక్స్ ఇత్యాదికం దత్తమస్తి, తత్ కృపయా పఠిత్వా ఆగచ్చంతు. అనంతరం అస్మాభిః ద్రష్టుం శక్యతే సర్వాణి సూత్రాణి అత్ర లఘుకౌముద్యాం ఆగతాని వా కేచన త్యక్తాని వా ఇత్యపి ద్రష్టుం శక్యతే. విసర్గ సంధి ప్రకరణానంతరం ఏకవారం సంధి ప్రకరణస్య పునరావర్తనం ఏకస్యాం కక్షాయాం పునరావర్తనం కరిష్యామి. తత్ర అనురాధ భగిని ప్రార్థితవతి, విద్యా భగిని అపి ప్రార్థితవతి ఏకవారం పునరావర్తనం కుర్వంతు ఇతి. అవశ్యం తత్ కరోమి, యతో హి తత్ర ఏ తత్ర మధ్యే కక్షార్థం నాగతాః రికార్డింగ్ శ్రోతుం అశక్తాః తే సర్వే తాః సర్వాః ఉపకృతాః భవంతి. ఇత్యుక్తే కించిత్ వేగేన గచ్ఛామి, ఏకవారం పునరావర్తనం ప్రాయః ఏకస్యాం కక్షాయాం కరోమి. తదనంతరం శబ్ద ప్రకరణస్య ఆరంభః. తత పూర్వం అసైన్మెంట్ ఇదానీం ఆగచ్చతి. తత్ర ఏకవారమేవ ప్రేషయామి వా కించిత్ కించిత్ ప్రేషయామి వా, తదహం ఇదానీం కించిత్ సజ్జీకృతం మయా, తత్ ప్రేషయామి. విసర్గ సంధి సమాప్తి అనంతరం అవశ్యం అసైన్మెంట్ అచ్చసంధి ప్రకరణాదారభ్య అసైన్మెంట్ ప్రేషయామి. అస్తు, శుభరాత్రి. ఏనాక్షరసమాం నాట్ రిసీవ్డ్, ఐ థింక్ ఇట్ వాజ్ అప్లోడెడ్ లేట్. షష్టాధ్యాయి వా షష్టాధ్యాయాత్ ఇత్యుక్తే అతోరో అప్లుతాదప్లుతే షష్టాధ్యాయ నమ సిక్స్త్ చాప్టర్ సిక్స్త్ అధ్యాయ ఫస్టాధ్యాయ षष्टाध्यायी उक्तं वा मया तत् प्रायः दोषः स्यात् षष्टाध्याये अस्ति इति अतोरोरु अप्लुतादप्लुते षष्टाध्याये अस्ति
नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं गुरुरेव गतिः गुरु मे
ओ ओ तद् न विस्मृतवान् अग्रिमकक्षायाम् आरम्भे एव कुर्मः तद्विषयं स्वीकुर्मः अवश्यम् अग्रिमकक्षायाम् आरम्भे एव स्वीकुर्मः मया विस्मृतं कृपया क्षम्यताम्
போன் பண்ணிருந்த என்ன எதுக்கு வந்துருட்டா சரி நாளைக்கு போன் பண்ணி சொல்றேன் இப்ப நாளைக்கு ஹோமத்துக்கு கிடைச்சால ஆளு
சரி